अशीत्युत्तर द्विसहस्रतमस्य नूतन विक्रम संवत्सरस्य सुखदावसरे रेडियो नेपालः सकल श्रोतृवृन्दम् विज्ञापनदातृन् शुभेच्छुकांच प्रति हार्दिम मंगलमयीम् शुभकामनाम् अभिव्यनक्ति। एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। अद्य अशीत्यधिक द्विसहस्रतम वैक्रमाब्दस्य वैशाख मासस्य प्रथम दिवस नूतन संवत्सरस्य प्रारभण दिवसो वर्तते। एतदवसरे आराष्टम परस्परम शुभकामनायाः आदान प्रदान पुरस्सरम सहस्रम दिवसोऽयं समायोज्यते। वैशाख संक्रान्ति नाम्ना प्रथितोऽयं दिवस मेघस संक्रान्तिश्च उच्यते। अद्य सूर्यः मीन राशे भोगं समाप्य मेष राशितो भोगं प्रारभते। सूर्यस्य गत्या संचलनस्य कारणात् विक्रम संवत्सरः शासोत्तोस्थिति राष्ट्रिय धर्म सभायाः अध्यक्ष प्राध्यापकः डा माधव भट्टराई भासते। कलियुग प्रारभणस्य सहस्रत्रयस्य चतुश्चत्वारिंशतश्च वर्षाणां पश्चात् विक्रम संवत्सरः प्रारब्धः इति मन्यते। अद्य प्रत्येकं व्यक्तिः गतवर्षे विहितानां कार्याणां सफलता विफलतयोः मूल्यांकनं विधाय विफलतायाः द्विरावर्तनस्य निरोधनाय सफलतायाः प्राप्तये च योजनां निर्माति संकल्पते च। अद्य प्रातरेव स्नात्वा गृह परिसरम स्वच्छीकृत्य च मिष्ठानम भोज्यते। सुहृद्भिः इष्टजनैश्च साकं मिलित्वा परस्परं शुभकामनायाः आदान प्रदानं च विधीयते। आविश्वं निवसन्तो नेपालिनः वैशाखस्य प्रथम दिवसं नववर्षस्य रूपेण मानयन्ति। उपलक्ष्यस्मिन् राष्ट्रपतिः रामचन्द्र पौडेलः शुभकामना सन्देशं प्रदाय राष्ट्रस्य अपार स्रोतः सम्प्रत सम्भावनाः समुद्घाट्य सबलस्य समुन्नतस्य च नेपालस्य निर्माणाय प्रतिबद्धैर्भाव्यम् इत्यत्र बलं ददाति। शुभकामना सन्देशे राष्ट्रपतिः पौडेलः व्याप्तं नैराश्यं विदार्य देशे राजनीतिक स्थिरतां सुशासनं च संस्थाप्य श्रमस्य सम्मानकारिणी संस्कृतिः विकसनीयेति उल्लिखति। उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः स्वस्य शुभकामना सन्देशे नूतन वर्षमिदं सकल शान्त्या सुदृढया राष्ट्रिय एकतया सामाजिक सद्भावेन च सहितायाः आर्थिक समृद्धेः कृते नवीनां शक्तिम् उत्साहं च वर्धयतीति विश्वासं व्यनक्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः स्वस्य शुभकामना सन्देशे नवीन वर्षमिदं विश्वासेन आशया साहसेन च राष्ट्रस्य दौर्बल्यस्य वैपरीत्येन क्षमताम् उद्भावयतीति कथयति। प्रधानमन्त्रिणा प्रचण्डेन सन्देशे समग्र राष्ट्रस्य संयुक्त संघर्षेण संकल्पेन च एतस्मिन् वर्षे न केवलं पञ्चाङ्ग परिवर्तनम् अपितु राष्ट्रस्य आर्थिक सामाजिक जीवनेऽपि रचनात्मक परिवर्तनम् आनयामः इति उल्लिखितं वर्तते। सभामुखा देवराज घिमिरे स्वकीय सन्देशे राजनीतिक नेतृत्वेन समेषां नेपालीनां जीवनम् अतिरिक्तम् उन्नतम् समृद्धं च विधातुं विशेष योजनां मार्गचित्रं च निर्माय कार्यारम्भो विधेयः इत्यावश्यकतां दर्शयति। एवमेव नववर्षस्य अवसरे कार्यवाहक प्रधान न्यायाधीशेन हरिकृष्ण कार्किणा मन्त्रीपरिषद पूर्वाध्यक्षेण खिलराज रेग्मिणा कोशी प्रदेशस्य मुख्यमन्त्रिणा हिक्मत बहादुर कार्किणा च शुभकामना सन्देशाः प्रदत्ताः सन्ति। नेपाल सर्वकारस्य अनियमेन व्ययभूतं वित्तं नवखर्वाः एकोनषष्टिः अब्जानि एकोनाशीतिः कोटयश्चेति रूप्यकाणि प्राप्तं वर्तते। महालेखा परीक्षकस्य कार्यालयेन गतदिने सार्वजनिकृते षष्टितमे वार्षिक प्रतिवेदने सर्वकारस्य अद्यावधिकम् अनियमेन व्ययभूतं एतत् परिमाणस्य वित्तम् उल्लिखितं वर्तते। प्रतिवेदने गतार्थिक वर्षे संघ प्रदेश स्थानीय स्तराणाम् एकमुष्टम् अनियमेन व्ययभूतं वित्तं खर्वेण एकोनविंशत्या अब्जैः सप्त सप्तत्या कोटिभिश्च रूप्यकैः वर्धितमिति उल्लिखितं वर्तते। एतस्मिन् वर्षे षण्णां सहस्राणां षट्चत्वारिंशदुत्तर पञ्चशतस्य च सर्वकारीय निकायानां एकसप्ततेः खर्वाणाम् अष्टात्रिंशतः अब्जानां षोडश कोटीनां च रूप्यकाणां परिमाणस्य लेखा परीक्षणं विहितमिति महालेखा परीक्षक टंकमणि शर्मा अवोचत। एतस्मिन् वर्षे अनियमेन व्ययभूतस्य वित्तस्य प्रतिशतं षडष्टाधिकैकं दृष्टमस्ति। महालेखा परीक्षकस्य कार्यालये ह्य आयोजिते पत्रकार सम्मेलने महालेखा परीक्षकः टंकमणि शर्मा संघीय निकायेषु सर्वाधिकम् अनियमेन व्ययीभूतं वित्तम् अर्थ मन्त्रालये अस्तीति अकथयत। गत आर्थिक वर्षे अर्थ मन्त्रालयस्य अनियमेन व्ययीभूतं वित्तं द्वात्रिंशत् अब्जानि षड्चत्वारिंशत् कोटयश्च रूप्यकाणि सन्ति। संघीय निकायानां सर्वेषां कार्यालयानां समग्रतः अनियमेन व्ययीभूतं वित्तं षड्पञ्चाशत् अब्जानि एकत्रिंशत् कोटयश्च रूप्यकाणि वर्तन्ते। तत्पूर्वं राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं महालेखा परीक्षकेण टंकमणि शर्मा दंगालेन महालेखा परीक्षकस्य षष्टितमं वार्षिक प्रतिवेदनं प्रस्तुतम् आसीत्। सर्वोच्च न्यायालये प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन स्वस्य विरूद्धे पञ्जीकारिते आदेशाभियाचन निवेदने लिखितमुत्तरं प्रस्तुत्य आदेशाभियाचन निवेदनं निरस्तीकर्तुम् अनुरोधं वर्तते। महान्यायाधिवक्तुः कार्यालयस्य माध्यमेन ह्य सर्वोच्च न्यायालये प्रस्तुते प्रधानमन्त्रिणः त्रयोदश सूत्रीय लिखितोत्तरे स्वस्य विरूद्धे पञ्जीकारिते आदेशाभियाचन निवेदने कथं विदोपि आधारः कारणञ्च नास्तीति हेतोः निरस्तीकर्तुम् अनुरोधमस्ति। देशे सशस्त्र द्वन्द्वस्य समये राज्यपक्षस्य विद्रोहीपक्ष जना मृता विस्थाताश्च आसन् तस्या घटनातः सम्भूताया धनजनयो ख्याते विस्तृत शान्ति संविदातः तदनन्तरं निर्मितेन संविधानेन विधिना च व्यवस्थापनस्य सुनिश्चितता विहिता स्थिति लिखितोत्तरे उक्तं वर्तते। संक्रमणकालिक न्यायस्य सम्बन्धे सर्वोच्च न्यायालयेन विभिन्न न्यायिक प्रकरणेषु विहितस्य निर्णयस्य आदेशस्य च अनुरूपं विलोपित व्यक्तिनाम् अनुसन्धान सत्य निरूपण मेलायोगाधिनियमे समयानुकूलं परिवर्तनं विधाय यथाशीघ्रं समस्यायाः समाधानं विधातव्यम् इत्यत्र आत्मनः प्रतिबद्धता स्थिति च लिखितोत्तरे प्रधानमन्त्रिणा दाहालेन उक्तम् वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः विपुलतम परियोजनासु निवेशनम् केन्द्रीकर्तुम् अनुरुद्ध अनुरुणद्धि। निवेशन समितेः उपवेशम् ह्य काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री दाहाल स्थिर विकासस्य लक्ष्यं समयैव अधिगत्य उच्च मध्यमायस्य राष्ट्रे स्तरोन्नतिं विधातुं विपुलं निवेशनम् आवश्यकम् अस्तीति अज्ञापयत। प्रधानमन्त्री प्रचण्डः वैदेशिक धनं प्रविधिं च प्रवेश्य स्वदेशे एव वृत्त्युपार्जनानां सर्जनं प्रति उत्पादनं प्रवर्ध्य आयातस्य प्रतिस्थापनं विधाय निर्यातस्य प्रवर्धनं प्रति च निवेशनस्य केन्द्रीकरणं तथैव आवश्यकं वर्तते इति प्रत्यपादयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति सांविधानिक परिषद पदाधिकारीभिः विमृश्य तत्कालम् उपवेशम् आहूय च प्रधान न्यायाधीशस्य नियुक्तेः सम्बन्धे आवश्यको निर्णयः विधास्यते। प्रधानमन्त्रिणा प्रचण्डेन सह बालवाटार वर्तिनी प्रधानमन्त्री निवासित नेपाल बार एसोसिएशन संघस्य पदाधिकारीभिः सह ह्य मिलित्वा चतुर्दशभ्य मासेभ्य न्यायाधीशस्य सत्वात् सर्वोच्च न्यायालये कार्यवाहक प्रधान न्यायाधीशस्य सत्वात् तत्कालं सांविधानिक परिषद उपवेशम् आयोज्य प्रधान न्यायाधीशं नियोक्तुं प्रधानमन्त्रिणः प्रचण्डस्य ध्यानाकर्षणं विहितम् आसीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा संघस्य स्थानीय सर्वकाराणां च आन्तरद्वन्द्वं पारस्परिक सहकार्यस्य संवादस्य च माध्यमेनैव समाधातव्यम् इति वदति। मन्त्रिपरिषद निर्णयान् सार्वजनिकर्तुं ह्य सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता च मन्त्री शर्मा पश्चात्तन समये काष्ठमण्डप महानगरपालिकायाः कार्यं प्रति सर्वकारः गभीरोऽस्ति समस्यायाः समाधानाय प्रयास विद्यमानोऽस्तीति च अज्ञापयत। एवमेव गतचैत्रस्य चतुर्विंशे अष्टाविंशे च दिवसयोः उपविष्टेन मन्त्रिपरिषदः उपवेशेन खाद्य पदार्थेषु विषादेः अधिकतम सीमायाः कुकुटस्य खाद्यबीजजातस्य गुणस्तरस्य मात्रायाश्च निर्धारणं विधाय तस्य सूचनां नेपाल राजपत्रे प्रकाशयितुं स्वीकृतेः प्रदानाय च निर्णीतं वर्तते। उद्योग वाणिज्य प्रवर्धन संवाद परिषद संगठनस्य पञ्चसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीय आदेशस्य अनुसूच्या संशोधनाय व्यापारहानि न्यूनीकरणेन सम्बद्धाया एतद्विक्रम वर्षीयाया राष्ट्रिय कार्ययोजनाया स्वीकृत्यै जुगल हिमश्रृंखलाया हिमशिखराणां पर्वतारोहणं प्रारब्धुं च निर्णीतमिति मन्त्री शर्मा असूचयत्।